द्वितीय उल्लासः क्रमेण शब्दार्थयोः स्वरूपमाह त्याद्वाचको लाक्षणिकः शब्दोत्र व्यञ्जक स्त्रिधा अत्र काव्ये एषाम् स्वरूपम् वक्ष्यते वाच्यादयस्तदर्थाः स्युः वाच्य लक्ष्य व्यङ्ग्याः तात्पर्यार्थोऽपि केषुचित् आकांक्षा योग्यता सन्निधि वशात् वक्ष्यमाण स्वरूपाणाम् पदार्थानाम् समन्वये तात्पर्यार्थो विशेष वपुर पदार्थोऽपि वाक्यार्थ समुल्लसितित्यभिहितान्वयवादिनाम् मतम् वाच्य एव वाक्यार्थ इत्यन्विताभिधानवादिनः सर्वेषाम् प्रायशो अर्थानाम् व्यञ्जकत्वम् अपिष्यते विशिष्टस्यो शब्दार्थयोः काव्यत्वेनोक्तद्वादौ बोध्यबोधकभावस्यैव च तयोर्वैशिष्ट्यत्वेन कथाकया वृत्त्या तयोर्वैशिष्ट्यमित्याकाङ्क्षायाम् तद्वृत्त्या तयोर्वैशिष्ट्यम् विवक्षुराः क्रमेणेति स्वरूपम् तद्वृत्त्या बोध्यबोधक स्वरूपम् तथा च बोधक बोध्यता सम्पादक वृत्ति स्वरूप कथनमेव स्याद्वाचक इत्यादिना उपकान्तम् न तु वाचकादि संज्ञा कथनम् तथा सति साक्षात् संकेतितम् यो अर्थमित्यादि वक्ष्यमाणवाचक लक्षणे बहुविशेषणो पादानवय्यर्थ स्यादिति तदवसरे दर्शयिष्याम एवञ्च स्याद्वाचक इत्यादौ सक्त्या प्रतिपादको लक्षणया प्रतिपादको व्यञ्जनया प्रतिपादक शेत्यर्थ अत्र काव्य इति अद्यप्य काव्यस्थोऽपि शब्द आलङ्कारिक व्यञ्जक उच्यते इत्यर्थ काव्य इत्यव्यावर्तकम् तथापि काव्य विवेचकालङ्कार शास्त्र परमैवात्र काव्यपदम् बोध्यम् स्वरूपम् लक्षणम् केषुचिदिति प्राचीननैयायिकमते स्वित्यर्थ तन्मते पदोपस्थापितानाम् पदार्थानाम् संसर्गो वाक्याद्भाव समानस्तात्पर्याख्याम् वृत्तिम् प्रेक्षते तात्पर्य विषय संसर्गस्यैव वाक्याद्भानात् इयमेव धुनिक संसर्गमर्यादोच्यते तदा आकाङ्क्षेति अभिधान पर्यवसानमाकांक्षा बाध विरहो योग्यता अव्यवधानेनान्वय प्रतियोप्युपस्थितिः सन्निधि तस्य च उपस्थितान्वय प्रतियोगिनाम् व्यवधान मेवार्थतेनासक्तिज्ञाने अन्वय प्रतियोग्य पस्थिते न विषयः वक्ष्यमाणेति जात्यादिर्जातिरेव वा इत्यादिना वक्ष्यमाणेत्यर्थ समन्वये समन्वय बोधे समन्वयात्मक एव तात्पर्यार्थ समुल्लसति विषयी भवति कीदृशः विशेष वपुः विलक्षण स्वरूपः वैलक्षणमेव पुनर्निवृणोति अपदार्थ इति पदा प्रतिपाद्य इत्यर्थ तर्हि कस्य प्रतिपाद्य इत्यत् आह वाक्यार्थ इति वाक्य प्रतिपाद्य इत्यर्थः हितेति अभिहितानाम् पदोपस्थितानाम् मन्वयबोधवादिनाम् नैयायिकानामित्यर्थः संसर्गस्य पदानुपस्थापितत्वेन तत्र तात्पर्याख्या वृत्तिस्तस्य स्वीक्रियते तच्च न मीमांसक मतसिद्ध्यमित्याह वाक्यार्थः संसर्गो वाच्य एवेत्यर्थः इतरान्वितत्वेनैव पदानाम् शक्तिग्रह पदविशेष समभिव्याहार वितर स्मृतिरिति तेषाम् मतम् नन्वेवम् शब्दस्यैव व्यञ्जकत्वमुक्तम् तत्कथम् शब्दार्थयुगलात्मनः काव्यस्य वाच्या तिशायि व्यङ्गव्यञ्जकतया ध्वनित्वमुक्तमित्यतो अर्थस्यापि व्यञ्जकत्वमाह सर्वेषामिति अर्थानामित्यन्वयः अन्वयव्यञ्जकत्वमपि कस्यचिदर्थस्येत्यत् उक्तम् प्रायश इति सर्वेषाम् वाच्यलक्ष्यव्यङ्ग्यानाम् वाच्यस्य यथेत्यत्र व्यञ्जकत्वमित्यन्वयः एवमुत्तरद्वयेति मायेति तत्र वाच्यस्य यथा माये घरोव अरडम् अजहुंडस्थिति साहियम तुमये ता भणकिम करणिज्यम एमेयडवासरो ठाई अत्र स्वैर विहारार्थिनिति व्यंज्यते लक्ष्यस्य यथा साहेंति सही सुह अम खणे खणे दुम्मी आसी मजूझ कयें सब भावडेह करणिज्य सरीस अम दाव बिर ई अम तुमये अत्र मत्प्रियं रमयन्त्या त्वया शत्रुत्वमाचरीत मिति लक्ष्यं तेन च कामुक विषयं सापराधत्व प्रकाशनम् व्यंग्यम् व्यंग्यस्य यथा मातृर्गृहोपकरणमद्य हि नास्तीति साधितं त्वया तद्भण किं करणीयमेवमेव न वासरः स्थायी इति संस्कृतं प्रत्यहं गृहव्यापारेण स्वैरं विहर्तुमक्षमायास्तरुण्या मातृयुक्तिरियं साधितं प्रतिपादितं एवमेव निर्व्यापार एव स्थायि स्थास्यति अत्रेति व्यञ्ज्यते वाच्यार्थेन सर्वेषामेव पदानामत्र वाचकत्वेन तदर्थबोधादेव तादृशव्यङ्ग्यार्थप्रतीतेः साहेन्तीति साधयन्ति सखि सुभगं क्षणे क्षणे दूनासि मम कृते सद्भाववस्त्रेह करणीय सदृशं तावद् विरचितं त्वया इति संस्कृतं उपनायकोपभुक्तां दूतिं प्रति नायिकायाः सोल्लुण्ठनोक्तिरियं सद्भावः शिष्टता अत्रेति नन्वेतादृशो अर्थो न कस्यापि पदस्य लक्षणरया गम्यः तथा त्वे निराकांक्षत्वेन तस्या परपदार्थे न्वया संभवात् अत्र प्राचीनाः लक्ष्यमित्यत्र लक्षणामूलव्यङ्ग्यमित्ये वार्थ लक्ष्यार्थो तु सद्भावस्त्रेह पदयोरसद्भावस्त्रेहावेव एवं मम कृते इत्यत्रापि स्वस्य कृते इत्येव लक्ष्यार्थः न चैवं तेन चेत्यादिना व्यङ्ग्यान्तरकथनम् मनुपयुक्तमिति वाच्यं प्रसंगादेव व्यङ्ग्यान्तरकथनादित्याहु तन्लक्ष्यस्य यथा इत्यनेनैव लक्षणामूलत्वप्राप्तौ पुनस्तत्कथनानुपपत्ते अनुपयुक्तस्य व्यङ्ग्यव्यङ्ग्यान्तरकथनस्यानौचित्याञ्च चक्रवर्ती तु सदृशपदस्य शत्रुत्वं लक्ष्यं तथा च मत्प्रियं रमयान्त्या त्वया आचरितं शत्रुत्वं लक्ष्यमित्यर्थ इत्याह तदपि न तदा सद्भाववस्त्रेह करणीयस्य शत्रुत्वमित्यन्वयस्यानुपपत्तेः अचेतनस्य करणीयस्य शत्रुत्वाभावात् ताभ्यां करणीयं शत्रुत्वमित्यन्वयस्याप्यसम्भवाच्च सद्भावस्त्रेहाभ्यां शत्रुत्वकरणासम्भवात् वयं तु सदृशपदेवि सदृशलक्षणा तथा च ताभ्यां करणीयस्य विसदृशं विपरीतमाचरितमित्यर्थ एवञ्च मम कृते इत्यत्रापि स्वसुखस्य कृते इत्येवार्थं मम कृते गत्वा इति वा अर्थ तथा च विसदृशं संलक्ष्यं तदेव विवृत्यं दर्शयति मतप्रियमित्यादि नेति न किञ्चिदनुपपन्नम् तद्वयङ्गमाहतेन चेति कामुकेत्यत्र एकशेष तथा च कामुकी कामुकयोः सापराधत्वमियं प्रकाशयतीति सामाजिकैर्व्यञ्जनयावगम्यते द्वितीया तु आवयोरित्येवमवगम्यते इति बोध्यम् उवनिश्चलेति उवनिश्चलनिष्पन्दा विसीनिपत्रे राजते बलाका निर्मल मरकत भाजन परिस्थिता शंख शुक्तिरिव इति संस्कृतम् उवणिचलणी पदाम भीषिणी पत्तमी रेह ई बला आ डिम्मल मरग अ भाण परिठिया शंख सुतिव्य अत्र निस्पन्दत्वेन आश्वस्तत्वं तेन च जनरहितत्वम् अतः सङ्केतस्थानमेतदिति कयाचित् कच्चित् प्रत्युच्यते अथवा मिथ्या वदसि न त्वमत्रागतो भूरिति व्यञ्जते वाचकादीनां क्रमेण स्वरूपमाह संकेत स्थलं दर्शयन्त्या द्वितीया उक्तिरियम् उहेति पश्येत्यर्थः निश्चलेति सम्बोधनं तस्य च निरुद्य मित्यर्थः शङ्ख शुक्ति शङ्ख कपालं चक्रवर्ती तु निश्चला पृथ्वी सेव निस्पन्दे त्यर्थ इत्याह तन्न पृथ्वी वाचकस्य अचला शब्दस्य परिवृत्य क्षमतायाः निष्कम्पा रचिता नेत्र युद्धं वेदय साम्प्रतम् इत्यत्र दोषोल्लासे ग्रन्थ कृतव वक्ष्यमाणत्वात् अन्यथा निश्चल निष्पन्दत्वे नेत्येव वृत्तौ लिखितं स्यात् न निष्पन्दत्वेनेति अतः संकेतेति उच्यते व्यञ्जते इत्यर्थः अत्रैव विकल्पेन व्यङ्ग्यान्तरमाह अथवेति तथा च अहं तत्र गत्वा त्वाम् नासाध्य आगतो अस्मित्येवं यद्वदसि तन्मिथ्येत्यर्थः मिथ्यात्वं ब्रीवृणोति न त्वमिति यदि त्वं तत्र गतः स्यास्तदा बलाका आश्वस्ता न स्यादिति भावः साक्षात् संकेतितं यो अर्थं विधत्ते स वाचक इहा गृहीत संकेतस्य शब्दस्यार्थ प्रतीतेरभावात् संकेत सहाय एव शब्दोऽर्थ विशेषं प्रतिपादयति यस्य यत्र व्यवधानेन संकेतो गृह्यते स तस्य वाचकः वाचकादीनामिति शक्त्यादिना प्रतिपादकादीनामित्यर्थः स्यादवाचक इत्यादौ तथैव उपक्रमस्य प्रदर्शितत्वात् स्वरूपं लक्षणं शक्त्या प्रतिपादकत्वं च शक्त्यधीन प्रतिपत्तिजनकत्वं तच्च परम्परया लाक्षणिक शब्दे चित्य तद्वारणार्थ साक्षात् प्रघटितं तद् ग्राहकं लक्षणमाह साक्षादित्यादि अत्र संकेतितमिति संकेत शब्दात् ग्रहार्थे कारितं ततः कर्मणि कः तथा च संकेतग्रहविषयमित्यर्थः ग्रहे च साक्षात्त्वं विशेषणं संकेतश्च तच्छब्दीयो बोध्यः न तु शब्दान्तरीयः तथा लक्ष्यार्थ वाचक शब्दान्तरमादाय लाक्षणिकाद्यावर्तनात् तथा च साक्षाद् गृहीतस्वसंकेतयमर्थं यः शब्दो विधत्ते स शब्दस्य स्यार्थस्य वाचक इत्यर्थः वाचक इत्यस्य शक्त्या प्रतिपादक इत्यर्थः उपक्रमावधि व्याख्यात एव अतो अत्र वाचक संज्ञक इति नार्थः तथात्वे यो यमर्थ साक्षाद् विधत्ते साक्षाद् विधया प्रतिपादय यति चेत्तावतैव सामञ्जस्ये शैशवय्य व्यापत्तेः पूर्वदशिताकांक्षया तु शक्त्या प्रतिपादकत्वमेव लक्ष्यतावच्छेदकम् तथात्वे च शक्त्या प्रतिपादकत्वं न लक्षणं सम्भवति लक्ष्या तावच्छेदकलक्ष्योरैक्येनात्मात्माश्रयापत्तेः अतो अत्र अभिधत्त इत्यस्य विधया प्रतिपादयतीति नार्थः किन्तु प्रतिपादयतीत्येवार्थ तथा च योऽयमर्थ प्रतिपादयतीत्ये तावन्मात्रकरणे व्यञ्जना असक्यार्थ प्रति पादकेऽपि तद् वाचकत्वापत्तिः स्यादतः संकेतितमिति गृहीत स्वसंकेतमित्यर्थः संकेतो हि वृत्तिर्व्यङ्ग्यार्थस्तु न तादृशः अगृहीताया एव व्यञ्जनाया बोधकत्वात् तथावगृहीतलक्षणारूपवृत्तिकार्थप्रतिपादके लाक्षणिकशब्देऽपि लक्ष्यार्थवाचकतापत्तिः स्यादतः साक्षाद् गृहीत स्वसंकेतमिति लक्षणारूपवृत्ते मुख्यार्थबाधादिग्रह व्यवधाने नैव असाक्षात्वात् न च संकेतपदं शक्ति परमेवास्तु न वृत्तिपरम् तथा च लक्ष्यार्थेऽपि शक्तिग्रहाभावादेव न तत्रापि व्याप्तिः स्यात् किं साक्षात्प्रवेशे नेति वाच्यम् अर्थे गृहीत स्वशक्तिकत्वस्य लक्षणवाक्याद् ग्रहदशायां तुल्यवित्ति वेद्यतया शब्देऽपि शक्तया तदर्थ प्रतिपादकत्वग्रहेण लक्षतावच्छेदकलक्षणयोर्ग्राह्यग्राहकभावानुपपत्तेः केचित् संकेतितमर्थ यः साक्षाद्भिधत्ते इत्यन्वयमाहु तन्न व्यवधानेन गृहीतस्व वृत्तिकेन लाक्षणिक शब्देनापि साक्षात् तदर्थ प्रतिपादनात् तत्राति व्याप्तेह वृत्तिग्रहोऽपि प्रमारूप एव बोध्यतेन शक्ति भ्रम गृहीतार्थ प्रति न वाचकतापत्तिः इत्थं गृहीत संकेतावेव शब्दार्थ प्रतिपादक प्रतिपाद्या वित्त्यभिप्रेत्य लक्षणे कृते अर्थगृहं प्रति संकेत ग्रहस्य आवश्यकत्वे प्रमाणं दर्शयन् लक्षणं व्याचष्टे इहेति संकेत सहाय गृहीत संकेत सहायः संकेतित चतुर्भेदो जात्याभिजातिरेव वा यद्यप्यर्थक्रियाकारितया प्रवृत्तिनिवृत्तियोग्या व्यक्तिरेव तथाप्यान्यन्त्याद्व्यभिचाराञ्च तत्र संकेतः कर्तु न युज्यत इति गौः शुक्लस्य लोडित्थ इत्यादीनां विषयविभागो न प्राप्नोतीति च तदुपाधारेव संकेतः उपाधेश द्विविध वस्तुधर्मो वक्त्रीय दृक्षासन्निवेशितश्च वस्तुधर्मोऽपि द्विविध सिद्धसाध्यश्च सिद्धोऽपि द्विविधः पदार्थस्य प्राणप्रदो विशेषाधानहेतुश्च तत्रादो जातिः उक्तम् हि वाक्यपदीये न हि गौः स्वरूपेण गौर्नाप्य गौः गोत्वाधि सम्बन्धात्तु गौरिति द्वितीयो गुणशुक्लादिनां हि लब्धसत्ताकं वस्तु विशिष्यते साध्यपूर्वापरिभूता वयवः क्रियारूपः डित्थादिशब्दानामन्त्यबुद्धिर्निर्ग्राह्य संहृतक्रमं स्वरूपं वक्त्रा यद्वृक्षा डित्थादिस्वर्थेषूपाधित्वेन सन्निवेश्यत इति सोऽयं संज्ञारूपो यदीक्षात्मक इति गः शुक्लश्च लोडित्थ इत्यादौ चतुष्टयी शब्दानां प्रवृत्तिरिति महाभाष्यकारः परमाण्वादिनां तु गुणमध्यपाठात् परिभाषिकं गुणत्वं गुणक्रिया यदृच्छानां वस्तु एकरूपाणां मप्याशयभेदात् भेद इव लक्ष्यते यथैकस्य मुखस्य खड्गमुकुर तैलाद्यालम्बनभेदात् हिमपयः संखाद्याशयेषु परमार्थतो भिन्नेषु शुक्लादिषु यद्वशेन शुक्लः शुक्ल इत्याद्य भिन्ना प्रत्ययोत्पत्ति च शुक्लत्वादि सामान्यं गुणतण्डुलादि पाकादिष्वेवमेव पाकादित्वं बालवृद्धशुकाद्युति ऋतेषु डित्थादि शब्देषु च प्रतिक्षणं विद्यमानेषु डित्थाद्यर्थेषु वा डित्थत्वा जस्तिति सर्वेषां शब्दानां जातिरेव प्रवृत्तिनिमित्तमित्यन्ये तद्वान् अपोहो वा शब्दार्थः कैश्चिदुक्त इति ग्रन्थगौरवभयात् प्रक्तानुपयोगाच्च न दर्शितम् संकेतिश्चतुरिति संकेतितः साक्षात् गृहीत स्वसंकेतचतुर्भेदः चतुःप्रकारचतुष्टयमाह जात्यादिरिति जातिगुण क्रियाय दृच्छोपाधि रूप इत्यर्थः व्यक्तरेव संकेतित्वमुचितमित्याशङ्कते यद्यपि अर्थः प्रायोजनम् हलवाहनादि तस्मै क्रियागवादे रानयनादिः तत्कारित्वा द्वित्यर्थः व्यक्तिः गवादिः तथा च तत्रैव संकेतग्रहो वक्तुमुचित इति पूरणीयम् अत्र समाधत्ते तथापि ननूनानन्त व्यक्तिषु संकेतग्रह किन्तु द्रष्टव्यक्तावेव इत्यत्आह व्यभिचाराच्चेति संकेतग्रहकाला दृष्टव्यक्तावपि बोधस्य कार्यस्य तद्व्यक्तिसंकेतग्रहरूपकारणे व्यभिचारादित्यर्थः कर्तुमिति व्यक्तावेव बालकेन संकेतो गृहीत इत्ययमर्थोऽस्माभिर्वाग्विषयः कर्तुमित्यर्थः न तु बालकेन ज्ञातुमिति बहुभिः व्याख्यातोऽर्थ तद्व्यक्तिसंकेतग्रहकाले व्यक्त्यन्तरे बालकस्य व्यभिचारानुपस्थिते तद्व्यक्तिशक्तिग्रहे तदुपस्थिरे तेरबाधकत्वाञ्च नन्वेकशक्तिशक्तिग्रहोऽपि व्यक्त्यन्तर्बोधं जनयति अतो न व्यभिचारः न चाति प्रसंग शक्ति ग्रह प्रकारी भवत् धर्माश्रयस्यैव यस्य कस्यचिद् बोधनीयमादित्यत् आह गौरिति अयं भावः यदि सप्रकारक एव त्वन्मते शक्तिग्रह स्यात् तदैव त्वन्मते व्यभिचार वारण स्यात् किन्तु सप्रकारक शक्तिग्रहाङ्गीकारेण लाघवम् प्रकारांशे शक्तिग्रहेणैव आक्षेप लभ्य व्यक्तिग्रहोपपक्षावस्मन्मतानुप्रवेशः स्यादतो व्यक्तिशक्तिवादिना त्वया निष्प्रकारक एव व्यक्तौ शक्तिग्रहो वाच्य तथा च एकस्यां व्यक्तौ गौरित्यादि पदचतुष्टयस्य प्रकारकृत विषय विभागो न स्यात् पदानां प्रकारोपस्थापना सामर्थ्यादित्यर्थ इदमुपलक्षणं निष्प्रकार कारक शक्ति ग्रहाभ्युपगमे उक्त व्यभिचारानुद्धारोऽपि स्यादिति बोध्यम् विषय विभाग प्रकार कृत न प्राप्नोति स्वसक्तामिति शेष भवत्यर्थो वा अत्र प्राप्नोति तदुपाधा वेवेति तस्याः व्यक्तेः उपाधौ प्रकारीभूते धर्मे इत्यर्थ संकेत इत्यत्र गृहात् इति शेष तथा च उपाधिशक्तात् पदात् स्वशक्त्यस्योपाधेः श्वाशक्त्याया व्यक्तेश्च स्मृतिर्विशिष्टानुभवश्च अशक्याया व्यक्ते स्मरण मेव चाक्षेपः न च व्यक्तेरनुभव मात्रमेवास्तु किं स्मरणाङ्गीकारेणेति वाच्यं गोत्वप्रकार स्मरणभावे गोत्व विशेषणशाब्दबोधानुपपत्ते गोपदाद गोत्वेनाश्वभ्रमानुपपत्तेश्च गोत्वा स्वयो रविनाभावाभावेन अनुभावन रूपाक्षेपासम्भवात् गोत्वा विनाभावात् गोस्मरणाङ्गीकारे तु भवत्येवाश्वे तद्भेदारोपः तदुक्तम् जातिशक्तम् पदव्यक्तिमप्यनु भावयति स्मारयति चेति तत्र च जातिपदमुपाधिमात्रपरमेव जात्यादिपाधिव चतुष्टयम् विभक्तविभागेन दर्शयति उपाधिश्चेति वस्तुधर्म वस्तुनि व्यक्तौ अनारोपितो धर्म स च व्यक्तिवृत्तिजातिगुणक्रियारूपः वक्ति यदृक्षेति स्वारसिकी इच्छा यदृच्छा तया सन्निवेशितः अवास्तवोऽपि पुत्रादौ नाम रूपः वस्तुधर्मेव द्विधा विभजति सिद्ध साध्यस्येति सिद्ध नित्य स च जातिगुणरूपः तन्मते गुणा अपि नित्या एव आविर्भाव तिरोभावादेव उत्पत्ति विनाश प्रतिविषयाविति साध्यजन्यः क्रियारूपः सिद्धमेव पुनर्विभजति सिद्धोऽपीति पदार्थस्य व्यक्तेः प्राणोहानोपादान व्यवहार स्वप्रकारक ज्ञानेन तत्प्रद इत्यर्थः स च जात्याद्य खण्डधर्मितावच्छेदकरूपः गोत्वे दन्त्वादि धर्मितावच्छेदक गृहं विना गवादिधर्मिणो हानोपादान व्यवहाराभावात् विशेषाधान अतादृशतो व्यावृत्ति बुद्धि तद्धेतु शुक्लादिगुणरूप इत्यर्थ यद्यपि गोत्वादेरपि अश्वादिव्यावृत्तिबुद्धिजनकत्वमस्ति तथापि तत्र प्राणप्रदत्वमधिकम् शुक्लादौ विशेषाधानमात्रम् अतौ विशेषाधान हेतुरित्यर्थ न च शुक्लादिव्यक्ते हानोपादाने धर्मितावच्छेदकतया शुक्लत्वादिकमपि प्राणप्रदमेवेति वाच्यम् तत्त्वेदन् दन्त्याद्य विषय शुक्लादिज्ञानेन शुक्लादिर्हानोपादानाभ्युपगमात् अस्तु वा शुक्लामान इत्यत्र तथा तथापि प्राथमिक शुक्लव्यवहारे इदन्त्वादिधर्मितवच्छेदकमेव प्राणप्रदम् शुक्लवन्तु तत्र विशेषाधायकमेव गोत्वास्वत्वादिकन्तु नैव मित्यभिप्राय आद्यो जातिः रीति अखण्डोपाद उपाधिरित्यर्थ वाक्यपदीयं वाक्यपदविवेचको ग्रन्थविशेषः स्वरूपेणेति गोत्वा विषयीभावेनेत्यर्थ नापि गौरिति अगो व्यवहारोऽपि इदन्त्वादिना उपस्थित एव धर्मिणित्यर्थ गोत्वाभिसम्बन्धात्तु इति गोत्वादिधर्मितावच्छेदक विशिष्टज्ञानादित्यर्थ गौरिति व्यवहार्य इति शेष शुक्लादिनाहिति प्राणप्रदेन लब्धसत्ताकम् लब्धव्यवहार्यताकम्। वस्तु वस्तु अशुक्लादितः शुक्ल स्वादिना व्यावर्त्यते इत्यर्थः साध्य स्वरूप महासाध्य इति पूर्वापरिभूत अवयव एकदेशो यस्य तादृश क्रिया समुदाय रूप इत्यर्थः पूर्वापरिभूत क्रियाधारायामेव पाकादिपद प्रयोगात वक्त यदृच्छा सन्निवेशित रूप मुपाधिं दर्शयति डित्थादिति वक्ता पित्रादिना डित्थादि रूपेषु अर्थेषु डित्था शब्दानां स्वरूपमु मुपाधित्वेन यदृच्छया सन्निवेश्यते आरोप्यते इत्यर्थता दृश्यस्वरूपस्य च आशु कवि आशु विनाशिक मिकान एकवर्ण घटितत्वेन तद्बोधोपायं पूर्वोक्तं स्मारयति अन्त्यबुद्धिति अन्त्यवर्णबुद्धि व्यङ्ग्यमित्यर्थ ननु तेनापि वर्ण क्रमेण व्यञ्जने सैवानुपपत्तिरित्यत आह संहृत क्रममिति तद्वर्ण क्रमिक ज्ञान भिन्नैक ज्ञानेन विषयीकृतमित्यर्थ चक्रवर्ती तु अन्त्यबुद्धि पद प्रत्यक्षान्तरोत्पन्ना पदार्थ स्मृति रूपा बुद्धि तया निर्ग्राहा विषय कृतम पदस्यैवात्र पदार्थत्वादित्यर्थ तया संहृत क्रमम ईश्वर प्रयोगाद्याधुनिक प्रयोग रूप क्रम रहितम आधुनिक प्रयोग रूपत्वादिति व्याचष्टे तन्नतत् कथनस्य प्रत्यानुपयोगित्वात् संज्ञा रूप इति तथा च तादृशी संज्ञा शक्ता शक्या चेत्युक्तम् धर्मनिस्त्वाक्षेपादेव लाभ इति भावः यद्यपि समवायी समवेतयोरेवा विना भावः स एव चाक्षेप हेतुः तथापि अविवक्षाभावोऽप्यसन्नेव वक्ता यदृक्षा आरोपितो धर्म्याक्षेप हेतुरिति बोध्यम् यदृक्षात्मक इति यदृक्षया आत्मा यस्येति विग्रह संज्ञाया यदृक्षारूपत्वाभावात् प्रवृत्तिः प्रवृत्तिविषयः परमाण्वादिशब्दानां प्रवृत्तिविषयसंशयम् निरस्यति परमाण्वादिनामिति परमाणुत्वादिनामित्यर्थः अणुदीर्घमहद् रस्वञ्चेति परिमाणरूपगुणमध्ये पठितत्वात् तत्परिभाषासिद्धमेव तेषां गुणत्वं प्रमाणान्तरं नापेक्षते इत्याह पारिभाषिकमिति ननु गुणक्रिया यदृक्षोपाधिषु शक्तिग्रहाभ्युपगमेऽपि तेषामपि प्रतिव्यक्ति नानात्वेन तावेवानन्त्य व्यविचारा वित्यत आह गुणक्रियेति जातिवदेतेऽपि अनेकाश्रया एकैक एवैत्यर्थः यद्यप्येवं सिद्धान्ते क्रियाया अपि नित्यत्वमेव सिद्धमूचितम् तथापि महाप्रलय परमाणुनामपि निष्क्रियत्वेन अनित्यत्वम् यदृक्षा यदृच्छोपाधि आलम्बन भेदादिति आशयत्वेन ज्ञात भेदादित्यर्थ खड्गादेर देवस्तुतो मुखाद्या अयत्वाभावात् जातिरेवेत्यादि मतं व्याचष्टे हीमपय इति अभिन्नाभिधानम् एकाकार शब्द प्रयोग अभिन्न प्रत्यय एकाकार प्रत्यक्षम् पाकादित्वम् पाकत्वादि एवं डित्थादि शब्द निष्ठामेव जाति मादावुपपादयति बालवृद्धेति उच्चार्यत्रि स्वरभेदेन डित्थादि शब्दानाम् अनेकत्वम् बालवृद्धेत्यादिना दर्शित्वा डित्थत्वादि जातेरनेक व्यक्तिवृत्तित्वमुपपादितम् शब्दवृत्तिजात्या तत् समवायिनः शब्दस्यैवाक्षेपसम्भवो न पुरुषस्येत्यतः पुरुषवृत्तिमेव डित्थत्वादिजातिमुपपादयति प्रतिक्षणमिति नानापुरुषेषु डित्थत्वानुपलम्भेऽपि एकस्यैव पुरुषस्यावस्थाभेदे नानेकत्वमुपपादितमनेन डित्थत्वमिति श्लिष्टशब्देन शब्द तदर्थवृत्तिजातिद्वयमुक्तम् इत्थं सर्वत्रैव जातिमुपपाद्य सर्वेषां शब्दानां तत्रैव शक्तिरित्याह सर्वेषामिति जातिरेव वेत्यत्र जातिपदखण्डोपाधिपरं तेनाकाशत्वाभावत्वादिपरिग्रह एवञ्च शुक्लपदात् शुक्लत्वादिजात्याश्रयस्य शुक्लादिगुणस्यैवाक्षेपः पटादिपरत्वे तु लक्षणैवेति मन्तव्यं प्रवृत्तिनिमित्तं प्रवृत्तिविषयः तद्वानिति नैयायिकमतम्। प्रकरीभूत धर्मवानित्यर्थ अपोह इति बौद्धमतम्। अपोह अतद्व्यावृत्ति न दर्शितं कारिकायामेव वृत्तौ तु दर्शितमेव। स मुख्योऽर्थस्तत्र मुख्यो व्यापारोऽस्याविधुच्यते। स इति साक्षात् संकेतितः अस्येति शब्दस्य मुख्यार्थवाद इति लक्षणालक्षणं वक्तुं मुख्यार्थं दर्शयति स मुख्योऽर्थ इति। व्यापारो वृत्तिः मुख्यार्थेऽपि अजहत स्वार्थात्मको पादानलक्षणसत्त्वात् तद्वारणाय व्यापारे मुख्यतो पादानमुख्यत्वञ्च व्यापारान्तर्बाधं विनैव कल्प्यमानत्वं। व्यापारान्तरस्य तु शक्तिबाधेनैव कल्पना। मुख्यार्थबाधे तद्योगे रूढितो अथ प्रयोजनात् अन्यो अर्थो लक्ष्यते यत् सा लक्षणारोपिता क्रिया। कर्मणि कुशल इत्यादौ दर्भग्रहणायोगात् गंगायां घोष इत्यादौ च गंगादीनां घोषाद्यधिकरणत्वायोगात् मुख्यार्थस्य बाधे विवेचकत्वादौ सामित्ये च सम्बन्धे रूढितः प्रसिद्धे तथा गंगातटे घोष इत्यादेः प्रयोगाद् एषां तथा न प्रतिपत्तिस्तेषां पावनत्वादिनां धर्माणां तथा प्रतिपादनात्मनः प्रयोजनाच्च मुख्येनामुख्योऽर्थो लक्ष्यते यत् स आरोपितः शब्दव्यापारः सान्तरार्थनिष्ठो लक्षणा। लाक्षणिकशब्दं निरूपयितुं लक्षणां निरूप्यति मुख्यार्थबाध इत्यादि। अत ग्राहककथनेन ग्राह्याया लक्षणाया वक्तृतात्परत्वसिद्धिर्बधेया। यत् इत्यव्ययम् ययेत्यर्थे वृत्तावप्येवम् तथा च मुख्यार्थवादे मुख्यार्थयोगे च ज्ञाते सति रूढित इति रूढिज्ञानात् शक्तपदापेक्षया शक्तपदप्रयोगस्य सामान्यतः सविशेषप्रयोजनकत्वज्ञानाद्वा ज्ञातया यया वृत्त्या अन्यो मुख्यभिन्नो अर्थो लक्ष्यते प्रतिपाद्यते सा वृत्तिलक्षणेत्यर्थः साचारोपिता पुरुषेण लक्ष्यार्थविषयतया जनिता स्वतात् परात्मिका क्रियावृत्तिः शक्ति स्वीश्वरेक्षात्मिका अन्या वा नित्यसिद्धा न पुरुषेण जनिता। यदित्यस्य ययेत्यर्थकत्वं दर्पणेऽपि व्यक्तव्यम् यथा मुख्यार्थबाधे तद्योगे ययान्यो अर्थः प्रतीयते रूढे प्रयोजनाद्वासौ लक्षणा शक्तिर्पिता इति। तत्र च शक्तिर्वृत्तिः अर्पिता पुरुषेण जनितेत्यर्थ रूढित्वथेति अत्र अर्थवेत्यर्थे अथेति क्वचिद् रूढिज्ञानात् क्वचित् प्रयोजनज्ञानादित्यर्थ मुख्यार्थबाधस्य मुख्यार्थस्य समभिव्याहृत पदार्थे अन्वय बाध एव पदार्थस्य क्वचिद् त्यबाधात् मुख्यार्थ स्यान्वयबाधोऽपि तात्पर्य विषयस्यान्वयस्य मुख्यार्थात् वच्छेदक रूपेण निर्वाह एव। गंगायां घोष इत्यादौ तात्पर्य विषयस्य तीरे घोषान्वयस्य मुख्यार्थ तावच्छेदकेन प्रवाहत्वेन छत्रिणो गच्छ गच्छतीत्यत्र तात्पर्य विषयस्य छत्रिणाम् अछत्रिणाञ्च गमनान्वयस्य मुख्यार्थ तावच्छेदकेन छत्रित्वेन कुन्ताः प्रविशन्तीत्यादौ तात्पर्य विषयस्य कुन्त्यादेः प्रवेशान्वयस्य मुख्यार्थ तावच्छेदकेन कुन्तत्वादिना च अनिर्वाहात् मुख्यार्थान्वयमात्रबाधविवक्षणे तु छत्रिकुन्तादेरपि गमनप्रवेशाद्यन्वयात् तत्र बाधाभावेन व्याप्तिः स्यात्। तात्पर्य विषय विवक्षणेऽपि तत्तै व्याप्तिः छत्रित्व कुन्तत्वा दिनापि छत्रि कुन्तयोर्य गमन प्रवेशान्वय संभवात् किन्तु तथात्वेनान्वयस्य तात्पर्य विषयत्वात् एक सार्थवाहित्व कुन्तित्वादि नैवान्वयस्य तात्पर्य विषयत्वात् तादृशान्वयस्य मुख्यार्थता वच्छेदक छत्रित्व कुन्त्वा दिना निर्वाहात् अतस्तात्पर्य विषयेति मुख्यतावच्छेदे छेदकेति चोपात्तम् ईदृश मुख्यार्थ बाध ज्ञानेऽपि यत्र लक्ष्यार्थे मुख्यार्थ सम्बन्धानुपस्थिति तत्र सतोऽपि वक्तृतात्पर्यस्य न कवि प्रयोगाः लक्षणात्वम् किन्तु वक्तर सामर्थ्य सूचिकानेयार्थ लक्षणैव सा तथा त्वत् च दोष एव वक्ष्यते तद्वारणाय तद्योग इत्युपात्तम् अनेन मुख्यार्थ योगस्य लक्षणाज्ञापकत्व कथनेन शक्य सम्बन्धस्य लक्षणात्वम् नैयायिक मत सिद्धमुपेक्षितमिति मन्तव्यम् तदुपेक्षा बीजम् च शुक्लः पट इत्यत्र शुक्लगुण समवायस्य लक्षणात्वे तया पट एवोपस्थाप्येत् न तु शुक्लगुण समवायानाश्रय शुक्लगुण इति रूढि प्रयोजनान्यत्र ज्ञानम् विना ज्ञातमपि वक्तुस्तात्पर्यम् नेयार्थ लक्षणैवेति तद्वारणाय रूढित इत्यादि द्वयम् लक्षणाज्ञाने त्वयम् क्रमः प्रथमं तात्पर्य घटितः निरुक्त मुख्यार्थ बाध ग्रह तात्पर्य ग्रह एव च तद्विषयति रादेरुपस्थिति ततस्तस्मिन्नेवार्थे मुख्यार्थ सम्बन्धोपस्थिति ततस्तस्मिन्नेवार्थे भूरि प्रयोग रूपाया रूढेर्ज्ञानात् सामान्यतः सप्रयोजनकत्व ज्ञानाद्वा वक्तुस्तात्पर्य रूपा लक्षणा ज्ञायते इति अन्योर्थ इति अत्राप मुख्यतावच्छेदक धर्म भिन्न धर्मावच्छिन्न इत्येवार्थ तेन सामान्य शब्दस्य विशेष परत्वे विशेषस्यान्यत्वमुपपद्यते ननु कारिकायाम् यदित्येवास्ति वृत्तावपि यदित्येव वक्ष्यते यतो लक्ष्यते स्मर्यते यत् तादृशी स्मृतिरेव लक्षणा सा चानुभावी कैव न स्मारिकेति कस्य चिन्मतेन किं न व्याख्यायते अलमव्यय यत् पदानुसरणे नेति अत एव शक्यपाद शक्योपस्थितिर्लक्षणेति जनमीमांसका अपि इति चेन्न लक्ष्यार्थोपस्थितेरेव लक्षणात्वे तस्या अज्ञाताया एवानुभावकत्वं वाच्यं तज्ज्ञानकारणत्वस्यानुभवबाधितत्वात् तथा च शक्तिरेव ज्ञाता वृत्तिप्रत्यायिका इति स्थिते साक्षात् संकेतित मिथ्यादिवाचक लक्षणे साक्षात् पदवैयर्थापादात् असाक्षात् गृहीत वृत्त्यन्तराभावात् व्यञ्जनाया अप्यगृहीताया एव बोधकत्वात् शक्यार्थ साधारणस्य पदार्थापस्थितिमात्रस्यैव शब्दबोधजनकत्वेन फलविशेष निकायस्तस्य उपस्थितेर्लक्षणत्वेन विशिष्य कारणता कल्पकाभावाच उपस्थिति लक्षणावदस्य हेयत्वेन तन्मतानुसारेणास्य व्याख्यातु मनोचित्यात् रूढि हेतुकाया प्रयोजन हेतुकायाश्च लक्षणाया उदाहरण द्वयमेकदैव दर्शयस्तत्र लक्षणं घटयति कर्मणिति कूशग्रहणायोग्य लौकिक कर्मणित्यर्थ ला आदाने इति धात्वर्थानुसारेण कुशलपदम् कूशग्राहिणी शक्तम् दक्षे तु लाक्षणिकमिति वैयाकरणाः तन्मते अवयव समुदायाभ्याम् भिन्नार्थबोधकस्य शब्दस्यावयवलभ्यार्थ एव शक्तिः समुदायलभ्यार्थे तु रूढिहेतुका लक्षणा पंकज पदन्तु अवयव समुदायाभ्यामेकस्यैव पद्मस्योपस्थापकमित्यतो न तल्लाक्षणिकम्, किन्तु योगरूढमेव गच्छतीत्यर्थे दो प्रत्ययान्तगमिना साधितमपि गोपदं न गमन विशिष्टमात्रे शक्तम्, किन्तु सुप्ते गव्यपि उणादि प्रत्ययान्तानां व्युत्पत्तिस्तः प्रायिकत्वाभ्युपगमात् अत स्तन्मतावष्टम्भेनाः कर्मणिति कलिङ्क साहसिक इत्यादिकन्तु सर्वमतसाधारणं रूढिलक्षणोदाहरणम् अवयवलब्ध्यार्थमात्रे शक्ति स्वीकारे तु मण्डपकुण्डलपदयोरपि मण्डपानकर्तिकुण्डग्राहाणि ग्राहिणोरेव शक्ति गृहविशेषभूषणविशेषयोस्तु लक्षणैव स्यात् दर्भग्रहणायोगादिति दर्भग्रहणस्य निरुक्त रूपेणायोगादित्यर्थः एवं घोषाद्यधिकरणत्वायोगादित्यत्र निरुक्तरूपेणायोगादित्यर्थः मुख्यार्थबाधे इत्यन्तेन द्वयोर्निरुक्तमुख्यार्थबाधं दर्शयित्वा द्वयोर्मुख्यार्थयोग्यं दर्शयति विवेचकत्वादौ सामीप्ये चेति यथा सङ्ख्यमुभयोः सम्बन्धद्वयमिदम् कुशोत्पाटनादि स्वस्वकार्ये भद्राभद्रविवेचकत्वाद्ये कधर्मत्वकुशग्राही दक्षयोः सम्बन्ध तीरे तु गङ्गा सामीप्यं सम्बन्ध सामीप्यन्तु स्वसंयुक्तसंयोगपरम्परा कुशलपदे रूढिहेतुत्वमाह रूढित इति तद्विवरणं प्रसिद्धेरिति भूरिप्रयोग एव प्रसिद्धि गङ्गायां घोष इत्यत्र प्रयोजन हेतुकत्वमाह गंगेति तथा न प्रतिपत्तिः उत्तरकालं न प्रतिपत्तिः तथा प्रतिपादनात्मनः उत्तरकालं प्रतिपादनात्मनः प्रयोजनादित्यत्र ज्ञातादिति शेषः तथा च भाविनः प्रयोजनस्य ज्ञानमेव हेतु बोध्यः सविशेषणेहीति न्यायात् तज्ज्ञानाञ्च इदं सप्रयोजनमित्येवं सामान्यत एव पावनत्वादिरूपेण तज्ज्ञानं तु लक्ष्यार्थज्ञानोत्तरमेव शैत्यादेशदानीं विशिष्यानुपस्थिते पश्वादेव तद्जनात् प्रयोजनसम्भावनाभावे तु सामान्यतोऽपि ज्ञानमित्यवधेयं रूढिहेतुकायान्तु रूढिमत्वादेव न सप्रयोजनकत्वज्ञानम् नेयार्थलक्षणायान्तु प्रयोजनबाधोपस्थितेरेव न तज्ज्ञानम् मुख्येनेति बाधसम्बन्धयोः प्रतियोगितया उपस्थितेन मुख्यार्थेन करणभूतेन शब्देनैव लक्ष्यत इत्यर्थः आरोपितः वक्तृपुरुषेणेति शेषः व्यापारवृत्तिसान्तरेति मुख्यार्थबाधाद्युपस्थितिव्यवधानेन उपस्थिते लक्ष्यार्थे विषयता सम्बन्धेन स्थित इत्यर्थः कारिका स्वसिद्धये पराक्षेपः परार्थे स्वसमर्पणम् उपादानं लक्षणं चेत्युक्ता शुद्धैव साद्विधा इत्थं लक्षणसामान्यलक्षणमुक्त्वा तद्विशेषानाः स्वसिद्धये इति स्वं स्वीयमुख्यार्थस्य विवक्षितरूपेणान्वयः तस्य सिद्धये बोधाय परस्य मुख्यतानवच्छेदधर्मावच्छिन्नस्य आक्षेपः प्रत्यायनं ययेति शेषः सा उपादानं नाम लक्षणा इति यथासङ्ख्यम् अन्वयः मुख्यार्थ उपादीयते अन्वयप्रतियोगितया स्वजन्यानुभवविषयी क्रियते अनयेति करणव्युत्पत्त्या अजहत स्वार्थेयं लक्षणेत्यर्थ इयमेवार्थान्तरसंक्रमित वाच्यलक्षणा चेति वक्ष्यते एवञ्च शक्यार्थस्यैव शक्यतावच्छेदकातिरि रूपेणोपस्थापनेपि पराक्षेप उपपन्नः अन्वय सिद्धय इत्यत्र विवक्षित रूपेणेत्य करणे क्षत्रिणो यान्ति कुन्ताः प्रविशन्ति इत्यादवच्छत्रि कुन्तवतो राक्षेपं विनापि क्षत्रिकुन्तयोरन्वय बोधसंभवेन पराक्षेपस्य स्वसिद्धिहेतुत्वाभावादसंभवः स्यात् विवक्षितरूपेणान्वय बोधस्तु न तदाक्षेपं विनेत्य दोषः परार्थे स्वसमर्पणमिति स्वं स्वार्थत्वम् परार्थेतीरादौ तत्समर्पणं तन्मात्रे स्वार्थता समर्पणमित्यर्थः अत्रापि ययेति शेष सालक्षणं नामलक्षणा उपलक्षणरूपेत्यर्थ न तु पादानलक्षणा वदन्वयबोधार्थ स्वार्थेऽपि स्वप्रतिपाद्यतारूपस्वार्थता अत्रास्तीत्यर्थः गङ्गायां घोषः इत्यादौ घोषान्वयार्थ तीरप्रतिपादने स्वार्थस्य गङ्गाया अप्रतिपाद्यत्वात् तद्वाधार्थमेव तत्प्रतिपादनात् स्वसिद्ध इत्युपादानलक्षणामुदाहरणदर्शनेन व्याचष्टे कुन्ता इति वृत्ति कुन्ताः प्रविशन्ति इत्यादौ कुन्तादिभिः रात्मनः प्रवेश सिद्ध्यर्थ स्वसंयोगिनः पुरुषा आक्षिप्यन्ते तदुपादानेनेयं लक्षणा गौरनुबन्ध्य इत्यादौ श्रुति चोदितमनुबन्धनं कथं मे स्यादिति जात्या व्यक्तिराक्षिप्यते न तु शब्देनोच्यते विशेष्यं नाभिधा गच्छेत क्षीणशक्तिविशेषणे इति न्यायात् इत्युपादान लक्षणा तु नोदाहर्तव्या न यत्र प्रयोजनमस्ति न वा रूढिरियम् व्यक्तिविना भावित्वात्तु जात्या व्यक्ति राक्षिप्यते यथा क्रियतामित्यत्र कर्ता कुर्वित्यत्र कर्म प्रविश्य पिण्डमित्यादौ गृहं भक्षयेत्यादि च पीनो देवदत्तो दिवा न भुङ्क्ते इत्यत्र च रात्रिभोजनं न लक्ष्यते श्रुतार्थापत्तेरर्थापत्तेर्वा तस्य विषयत्वात् गङ्गायां घोष इत्यत्र तटस्य घोषाधिकरणत्वसिद्धये गङ्गाशब्दः स्वार्थं पर्यति इत्येवमादौ लक्षणेनैषा लक्षणा उभयरूपा चेयम् शुद्धा उपचारेण मिश्रितत्वात् अनयोर्लक्षस्य लक्षकस्य च न भेदरूपं ताटस्थ्यम् तटादिनां गङ्गादिशब्दैः प्रतिपादने तत्त्वप्रतिपत्तौ हि प्रतिपादयिषित प्रयोजनसम्प्रत्यय गङ्गाश सम्बन्धमात्रप्रतीतौ तु गङ्गातटे घोष इति मुख्यशब्दाभिधाना लक्षणाया को भेदः कुन्तादिभिरिति बाधितान्वयप्रतियोगित्वेन उपस्थितः कुन्तादिभिः करणभूतैः शब्देनैव तत्संयोगिनः पुरुषा आक्षिप्यन्ते लक्ष्यन्ते इत्यर्थ तदुपादानेनेति तत् तस्मात् उपादानेन अन्वयबोधार्थ स्वीयमुख्यार्थोपस्थापने नित्यर्थ प्रवेशान्वयबोधार्थं कुन्तवत् इव कुन्तस्यापि उपस्थापनात् उपादानेनेत्यत्र भावे युट् उपादानमित्यत्र करणे युट् ननु धर्मे कुन्ते शक्तस्य कुन्तशब्दस्य यदि धर्मिणि कुन्तिनि लक्षणा तदा गोत्वे शक्तस्य गोशब्दस्य गोत्वविशिष्टधर्मिणि लक्षणा स्यात् तथा च सोमयागे गौरनुबन्ध्य इति श्रुतिवाक्यमेव उपादानलक्षणोदाहरणमस्तु इत्याशङ्क्य निषेधति गौरनुबन्ध्य इत्यादिना नोदाहर्तव्या इत्यन्तेन अत्यव्यक्तिराक्षिप्यते इत्यन्तेन लक्षणाप्रसंजनम् कथं मे स्यादिति प्राणित्वेन ध्यासिताया गोत्वजातेरे अरयम् भावनाकारः जात्येति बाधितान्वय प्रतियोगित्वेन उपस्थितया जात्याकरणभूतया शब्देनैव लक्ष्यत इत्यर्थः इत्थं लक्षणामाशंकय अन्तरा तत्र शक्तिप्रसक्तिं निरस्यति न त्विति प्रथमं गोशब्देन गोत्वमुपस्थाप्य ततस्तैव शक्त्या गौरव्युपस्थाप्यते इत्येवं शक्तिप्रसक्तिः तन्निरासे हेतुमाह विशेष्यमिति अविधाशक्तिः विशेष्यं गवादिधर्मिणं न गच्छेत उपस्थापनार्थं न प्राप्नोति तत्र हेतुमाह क्षीणेति यतो विशेषणे गोत्वा दावुपस्थापिते क्षीणशक्तिः क्षीणसामर्थ्या शब्दबुद्धिकर्मणां विरम्य व्यापाराभावेन सकृदुच्चरितशब्दार्थसकृद्बोधाभावात् विशिष्टे शक्तिस्तु वैशिष्ट्यांशेऽपि शक्त्यभ्युपगमे गौरवादेव न वाच्येति भावः इत्युपादानेति इति एवं रीत्या प्रसञ्चिता गौरनुबन्ध्य इत्यत्र उपादानलक्षणानुदाहर्तव्या इत्यर्थः अत्र हेतु न यत्रेति न वेति ननु गोशब्दस्य गविभूरिप्रयोगरूपारूढिरस्ते तत् कथमिदमुक्तम् अत्र चक्रवर्तीम् आधुनिक देवदत्तादिपदे रूढिर्नास्तीत्याह तन्न गवादिपदे रूढिमत्वा निरासात् अत्रोच्यते न वा रूढिरत्रेत्यनुक्ता न वा रूढिरियमित्युक्तेरयमभिप्रायः लक्षणा हेतु रूढिर्न भूरि प्रयोगमात्रम् किन्तु लक्ष्यार्थविनिर्मुक्त केवल शक्यार्थे प्रयुक्तस्य शब्दस्य लक्ष्यार्थे भूरि प्रयोग एव लक्षणा हेतु रूढि यथा केवले देशे शक्यार्थे प्रयुक्तस्य कलिङ्गशब्दस्य कलिङ्गत्वेन पुरुषे गोशब्दस्य तु केवल गोत्वे प्रयुक्तत्वात् न तादृशी रूढि तर्हि कथं गोः प्रतीतिरित्यत आह व्यक्त्यविनेति उपस्थितया जात्याकरणभूतया गोशब्देनैव व्यक्तिराक्षिप्यते स्वाशक्यापि स्मार्यते अनुभाव्यते चेत्यर्थ जातेः करणता च तत्स्मरणं विना व्यक्त्याक्षेपा भावात् नन्वेव मुपात्त शब्दस्याशक्यार्थोऽपि शाब्दबोधविषय इत्युक्तम् तच्च क्व दृष्टमित्यत्राह यथेति कियतमित्यत्र प्रत्ययार्थः कर्मकर्ता तु अध्याहार लभ्य एवं कुर्वित्यत्र कर्तृविहित प्रत्ययान्ते कर्म अध्याहार लभ्यम् यथा तद्रियमुपात्त शब्दाशक्यमपि शाब्दबोधविषयस्तथा गवादिव्यक्तिरपित्यर्थः कर्मत्वादि सामान्यरूपेणाध्याहारम् दर्शयित्वा कर्मविशेषत्वादि नापि अध्याहारम् दर्शयति प्रविशेति प्रविश इत्यत्र गृहं पिण्डमित्यत्र भक्षयेति यथा संख्य मध्याहार्यं पिण्डं प्रासं नन्वेवमर्थापत्युच्छेदः तत्रापि अर्थापत्ति लभ्यार्थस्य अध्याहारेण शाब्दबोधस्यैव सम्भवादित्यत आह पीन इति न लक्ष्यते शाब्दबोधेन न विषये क्रियते दिवा भोजित्वपीनत्वयोरेव प्रथमं शाब्दबोधेन विषयीकरणादित्यर्थ ननु तर्हि कथमनु भवसिद्धा तत प्रतीतिरित्यत आह श्रुतेति शाब्दबोधानन्तरं पीनत्वानुपपत्तिज्ञानरूपया अर्थापत्या रात्रिभोजित्वं प्रतीयते इत्यर्थः शाब्दिह्याकांक्षा शब्देनैव प्रपूर्यते इति मतेनार्थापत्तिलभ्येऽप्यर्थे शब्दकल्पनापक्षे क्लिप्तशब्देन तादृशार्थस्य श्रुतत्वात् श्रुतार्थापत्तिः तदकल्पनापक्षे स्वर्थापत्तिरिति मतभेदेन व्यवस्थितो वाकारः। इत्थमुपादानलक्षणां व्याख्याय परार्थे स्वसमर्पणमिति लक्षणलक्षणां व्याचष्टे गङ्गेति स्वार्थं पर्यतीति परार्थमात्रे तीर एव स्वार्थतां पर्यतीत्यर्थः लक्षणेनेति उपलक्षणे नेत्यर्थः अन्वयबोधे स्वशक्यार्थस्याप्रवेशन् मेवोपलक्षणम् लक्षणमित्यत्र कर्णेयुट् लक्षणे नेत्यत्र भावेयुट् इत्युक्ता शुद्धैवेति व्याचष्टे उभयरूपा चेति शुद्धेति शुद्धैवेत्यर्थः अत्र हेतुमाह उपचारेणेति शक्यलक्ष्ययोरभेदोपचारपूर्वकत्वे नेत्यर्थः वक्ष्यमाणलक्षणाचतुष्टये तु तयोरभेदोपचारपूर्वकत्वमस्तेव तयोः समानविभक्तिनिर्देशात् तादृशोपचारपूर्वकत्वे च सम्बन्धभेदवशात् गौणित्वशुद्धात्वञ्च वक्ष्यते अनयोस्तु तादृशोपचाराभावात् शुद्धात्वमेवित्यर्थः नन्वेवमनयोः प्राथमिकाभेदोपचाराभावेन तन्मूलकं पश्चादाहार्यभेदारोप रूपं प्रयोजनम् अपि नास्ति तथा च नेमे लक्षणे प्रयोजन ज्ञान निर्वाहो किन्तु शक्य लक्ष्य सम्बन्ध मात्र ज्ञान निर्वाहो एव तथा च वक्ष्यमाण नेयार्थ लक्षणा रूपे एवेति कवि प्रयोगा नरहत्वाद्युत्पादे एवेति भ्रान्तशङ्कां प्रयोजनान्तरसत्त्वप्रदर्शनेन निरस्यति अनयोरिति लक्ष्यस्य लक्षकस्य च भेदरूपमित्यत्र तयोर्भेदो भेदातिरिक्तः सम्बन्ध संयोगादिः तस्य मात्र गर्भता बोध्या तथा च तन्मात्रेण रूपं स्वरूपं निर्वाहाम् यस्य तादृशम् तातस्थ्यं लक्षणात्वम् उदासीनार्थ प्रत्यायकत्वेन लक्षणातटस्थो च्यते तदभावस्तातस्थ्यं तथाव अनयोर्लक्षणा प्रभेदयोर्लक्षणात्वं लक्ष्यस्य कुन्तिरादेः लक्षकस्य च कुन्त गङ्गादेः अभेदातिरिक्त सम्बन्धमात्रेण न निर्वाहामित्यर्थः किन्तु प्रयोजनेनापि तन्निर्वाहकं प्रयोजनमेवाह तटादिनामिति प्रतिपादने प्रतिपादनदशायां तत्त्वप्रतिपत्तौ सामान्यतः प्रयोजनवत्त्वप्रतिपत्तौ सत्यां प्रतिपादयिषितस्य लक्षणया लक्ष्यार्थज्ञापनेन प्रतिपादयितु मिष्टस्य तटादौ पावनत्वादेह कुन्ताद्यविरलत्वादेष्व प्रयोजनस्य सम्प्रत्ययः इत्यर्थः प्रयोजनीभूतज्ञानविषयत्वात् पावनत्वादेरपि प्रयोजनत्वेनोक्तिः एवमुत्तरोत्तरमपि बोध्यम् भेदपदस्याभेदातिरिक्तसम्बन्धमात्रपरताम् मात्रगर्भताञ्च व्यक्तीकुर्वन्नाह गङ्गासम्बन्धमात्रेति गङ्गादिसम्बन्धेत्यर्थः तेन कुन्तादेरपि सम्बन्धपरिग्रह को भेदः को विशेषः। कारिका सारोपान्या तु यत्रोक्तौ विषयविषयस्तथा आरोप्यमाण आरोपविषयस्य यत्रानपहनुत भेदौ समानाधिकरणेन निर्दिश्येते सा लक्षणा सारोपा। एतर लक्षणाद्वय भिन्नाम चतुर्विधाम लक्षणामाह सारोपानीयेति यदि शक्यवाचको लक्ष्यवाचकस्य शब्दः समान विभक्ति कतया निर्दिश्यते तत्र समान विभक्ति दर्शनात् प्रथमं लक्ष्यार्थे शक्यार्था भेदारोपो भवति यथा गर्वाहिकः आयुर्घृतमिति अत्र हि हलवाहकात्मनि वाहिके गौघृते चायुषः प्रथमं भेदारोपो भवति पश्चादेव बाधाद गोसदृशे आयुर्जनके च लक्षणा तादृशे प्राथमिकारोपे च शक्यार्थ आरोप्यमाणो विषयी लक्ष्यार्थश्चारोपाधिकरणं विषयः तादृशः विषयी विषयस्य यत्र लक्षणायाम् उक्तौ समानाधिकरणा विभक्त्या निर्दिष्टौ सा लक्षणा सारोपा प्राथमिका भेदारोप वतित्यर्थः एवमेव व्याचष्टे आरोप्यमाण इति अनपहनुत भेदौ इति रूपक एव भेदापहनवः अत्र तु गोसदृशायुर्जनकलक्षणावशादेव भेदभानात् न तदपहनव इत्यर्थः न च रूपकेऽपि सारोपालक्षणैवेति वाच्यम् तत्राहार्यस्य मुखे चन्द्राभेदबोधस्यानुवर्तमानत्वात् न चैवं गौर्वाहिक इत्यादिकमपि रूपकमेवेति वाच्यम् अत्र गोसदृशबोधस्यानुभवभवीकत्वात् न चानयोर्विनिगमनाविरहेण वैपरीत्यमेव किं न स्यादिति वाच्यम् आरोप्यमाणस्य प्राङ्गनिर्देशे सारोपा यथा गौर्वाहिक इत्यादौ आरोपविषयस्य प्राङ्गनिर्देशे तु रूपकम् यथा मुखम् चन्द्र इत्यादौ अत्र हि सादृश्यबोधानन्तरम् अभेदारोपः गौर्वाहिक इत्यादौ तु अभेदारोपादनन्तरम् शब्दादेव लक्षणया सादृश्यबोधः तस्य इयमेव विनिगमना अत एव रूपकादावुक्तम् अनुवाद्यमनुक्तवैव न विधेयमुदीरयेत् इति एवञ्च चन्द्रो मुखमिति प्रयोगे सारोपे लक्षणा वाहिको गौरिति प्रयोगे च रूपकमिति बोध्यम् समानाधिकरण्येनेति समानाधिकरणविभक्तिकत् इत्यर्थः कारिका विषयन्त्यः कृतेऽन्यस्मिन् सा स्यात् साध्यवसानिका वृत्ति विषयिणारोप्यमाणेनान्तः कृते निगीर्णे अन्यस्मिन्नारोपविषये सति सा साध्यवसाना स्यात् व्याख्या यदि च वाहिकादेर्लक्षस्य सामान्यसञ्चयनामपदेनैव निर्देशो न वाहिकत्वादि तद्विशेषवाचकपदेन तथा भेदकधर्मवाहिकत्वादेरनुपस्थिता आरोपे उत्कट स्वरूपा दभ्यवसानात् सैव साध्यवसानेत्युच्यते इत्याह विषयन्त्यरिति व्याचष्टे विषयिणेति गौरयम् आयुरिदमित्यत्र गवा आयुषा च आरोपविषये वाहिके घृते च निर्गिणे सतीत्यर्थ निर्गिणता च विशिष्यवाचकशब्देनानुपादानम् न च तत्र विषयिणः कथम् तृतीयया करणत्वम् दर्शितमिति वाच्यम् विषयितादात्म्येनैवापाततो विषयस्य प्रतीत्या विशिष्य विषयाभावेन विषयिण्येव तत्कारणत्वारोपात् कारिका भेदाविमौ च सादृश्याद् सम्बन्धान्तरस्तथा गौणौ शुद्धौ च विज्ञेयौ इमा वारोप्याध्यवसानरूपौ सादृश्यहेतुभेदौ गौर्वाहिक इत्यत्र गौरयमित्यत्र च अत्र हि स्वार्थसहचारिणो जाड्यमानन्द्यादयो लक्ष्यमाणा अपि गोशब्दस्य परार्थाभिधाने प्रवृत्तिनिमित्ततामुपयान्ति इति केचित् स्वार्थसहचारी गुणाभेदेन परार्थगता गुणा एव लक्ष्यन्ते न तु परार्थोऽभिधीयत इत्यन्ये साधारणगुणाशयत्वेन परार्थ एव लक्ष्यत इत्यपरे उक्तं चान्यत्र अभिधेया विना भूत प्रतीतिर लक्षणोच्यते लक्ष्यमाण गुणैर्योगाद् वृत्तेरिष्टातु गौणता इति अविनाभावोत्र संबंधमात्रं न तु नान्तरीयकत्वं तत्त्वे हि मञ्चाः क्रोशन्तीत्यादौ न लक्षणा स्यात् अविनाभावे चाक्षेपेणैव सिद्धे लक्षणाया नोपयोग इत्युक्तम् आयुर्घृतम् आयुरेवेदमित्यादौ च सादृश्यादन्यत् कार्यकारणभावादिसम्बन्धान्तरम् एवमादौ च कार्यकारणभावादिलक्षणपूर्वे आरोपाध्यवसाने अत्र गौणभेदयोर्भेदेऽपि तादृप्यप्रतीतिः सर्वैथाभेदावगमस्य प्रयोजनम् शुद्धभेदयोस्त्वन्यवैलक्षण्येना व्यभिचारेण च कार्यकारित्वादि क्वचित्तादर्थ्यादुपचारः यथा इन्द्रार्था स्थूणाः इन्द्रः क्वचित् स्वस्वामीभावात् यथा राजकीयः पुरुषो राजा क्वचिद् वयववाक्यविभावात् यथा गृहस्थ इत्यत्राग्रमात्रे वयवे हस्तः क्वचित् तात्कर्म्यात् यथा अतक्षातक्षा संस्कृतव्याख्या भेदाविमाविति सादृश्यात् सम्बन्धात् गौणौ सम्बन्धान्तरश्च शुद्धाविति यथा सङ्ख्यम् अन्वयः भेदाविमावित्युक्तया समानाधिकरणविभक्तिनिर्देशाभावे सादृश्यहेतुकापियम् न गौणिति दर्शितम् ततो विवेचकत्वरूपैकधर्मवत्त्वरूपात् सादृश्यादपि न कर्मणि कुशल इत्यत्र गौणिति बोध्यम् सादृश्यहेतु भेदावित्यस्य कारिकास्ते गौणावित्यत्रान्वयः आरोपाध्यवसानरूपावित्यत्र आरोपाध्यवसानाभ्याम् रूपम् ययोरिति विग्रह इत्थम् गवादिशब्दस्य गवादिसदृशे लक्षणेति प्रतिपादिते जाड्यमानन्द्यादिरूपे गवादिसादृश्य एव लक्षणा ततस्तेनैव जाड्यमान्द्यादिना प्रकारेण शक्तैव गोसदृशवाहिकप्रतीतिरिति केषाञ्चिन्मतमाह अत्र हिति अत्रैवेत्यर्थः जातिशक्तिवादे स्वार्थो गोत्वम् परार्थस्य वाहिकस्य अभिधाने अभिधया शक्त्या प्रतिपादने प्रवृत्तिनिमित्तताम् शक्यतावच्छेदकताम् तथा च गोशब्देन प्रथमम् जाड्यमानन्द्यादिरूपम् गोसादृश्यम् लक्षणया प्रत्यायते तेनैव जाड्यमानन्द्यादिना शक्यतावच्छेदकेन जडमन्दो वाहिकः शक्त्या प्रत्यायये इत्यर्थः न च शक्तिग्राहककोशाद्यभावात् कथम् तत्र शक्तिग्रह इति वाच्यम् धर्मे लक्षणाग्रहस्यैव धर्मिणि शक्तिग्राहकत्वस्य तत्सिद्धान्तत्वात् अत्र मते धर्मिण आक्षेपादेव लाभसम्भवे तत्र शक्तिकल्पनम् न्यायम् वाहिकवृत्तिजाड्यमानन्द्यव्यक्तिविशेषे स्वार्थगोत्वसहचारा भावश्येति दशणद् वयम्भिप्रेत्य तत्परिहरताम् मतमाह स्वार्थेति गुणाभेदेन गुणसाजात्येन तेन लक्षणीयेषु वाहिकवृत्तिगुणेषु स्वार्थगोत्वसहचारी गुण साजात्यमेव शक्यसम्बन्ध इत्युक्तम् धर्मिणस्त्वाक्षेप इति भावः एतन्मते जाड्यमानन्द्यरूपे सादृश्ये यदि सादृश्यत्वेन रूपेण लक्षणा तदा विशिष्टलक्षणावादप्रवेश एव यदि तु शुद्ध सादृश्य एव लक्षणा तदा गोसादृश्य वानिति विशिष्ट वैशिष्ट्य प्रतीति गोशब्दान स्यादिति दूषणम अभिप्रेत्य स्वपक्षपातिनां मतमाह साधारणेति चक्रवर्तीं तु गोसादृश्यस्य गोपदार्थत्वे गोसादृश्यं वाहित इत्येव बोधापत्तिः समानाधिकरण विभक्ति कयोर भेदान्वय बोध नियमा दिति दूषणमाह तन्न गौः शुक्लः इत्यत्रैव जाति शक्तिवादरित्या आक्षिप्त व्यक्तयोरेवा भेदान्वय बोधस्य तैः स्वीकारात् साधारणेति साजात्येन साधारणता परार्थः वाहिकादि रूपः सदिश एवित्यर्थः न परे अपरे स्वपक्षपातिन इत्यर्थः इत्थं सादृश्य संबंधाद गौणी संबंधांतरस्य शुद्धेत्युक्ताव संबंधादेव लक्षणा तस्य संबंधस्य सादृश्य रूपत्वे सा लक्षणा गौणित्युभयत्र संवादमाह उक्तं चेति अभिधेयस्य शक्तस्य यो अविनाभूतः संबंधस्तस्य प्रतीतिर्यतो वृत्तिः सा वृत्तिर्लक्षणोच्यते इत्यर्थः संबंधादेव लक्षणेत्यत्र अयम् संवादः तस्य संबंधस्य सादृश्य रूपत्वे सा वृत्तिगौणित्यत्र संवादमाह लक्ष्यमाणेति गुणाः शक्यगुणाः लक्ष्यमाणश्च ते चेति द्वन्द्वः तैः परस्परं योगादित्यर्थः तथा च शक्यवृत्तिधर्मरूपात् सादृश्यादित्युक्तम् केचित्तु गुणः शक्यगुणः लक्ष्यमाणस्य योगादिति समासवाक्यार्थ व्याचक्षते तन्न लक्ष्यमाणस्य गुणः सह समासः अन्वयस्तु योगादित्यत्र इत्यव्युत्पत्तिः युक्तार्थत्वाभावे समासाभावात् अविनाभूतेत्यत्र अविनाभावं व्याचष्टे अविनाभावो अत्रेति नान्तरीयकत्वं व्याप्तिः सा च यत्र धर्मस्तत्र तादात्म्येन धर्मित्येवं रूपा गोगोत्वयोरिव मञ्चा इति मञ्चमञ्चस्थयो रविनाभावा भावात् इत्युक्तमिति गौरवनुबन्ध्य इत्यादावुक्तमित्यर्थः सम्बन्धान्तरस्तस्थेस्तस्य विषयं दर्शयति आयुर्घृतमिति आयुरेवेत्यत्र एव कारः सम्पातायात् एव प्रकृतेत्वनुपयुक्तः क्वचित् पुस्तके तु तच्छून्य एव पूर्वकत्वमाह एव मादा विति कार्यकारणभावस्य लक्षणं ज्ञानं ततः पूर्वमारोपाध्यवसाने इत्यर्थः ते च समानाधिकरणविभक्तिकत्वदर्शनादिति बोध्यम् गौरवाहिकः इत्यत्र गौरवयमित्यत्र च लक्षणाद्वयस्य प्रयोजनं दर्शयति अत्रेति वाहिकादौ गवादे भेदे प्रतीते अपि एकत्र गोतादृप्य प्रतीति राह्यार्या अन्यत्र तु तादृशी प्रतीतिरेव सर्वार्थत्वघटिता उत्कटेत्यर्थः गौणभेदयो प्रयोजन मित्यन्वयः आयुर्घृतम् आयुरिदमित्यनयोः प्रयोजनमाह शुद्धभेदयोस्त्विति कार्यकारित्वं लक्षणा गम्यमेव तत्र अन्यवैलक्षण्यं व्यभिचारित्वञ्च यथा सङ्ख्यप्रयोजनद्वयमित्यर्थः सम्बन्धानन्तरं पल्लवयति क्वचिदिति उपचार इति उपचारपूर्विका लक्षणा स्थूणा स्तम्भ इन्द्रस्थूणा इन्द्रो अयमित्यादि रीत्या वक्ष्यमाणे सर्वत्रैव सारोपा साध्यवसाने बोधे इन्द्रवत् पूज्यत्वम् तदवदवश्यम् पूज्यमानत्वञ्च द्वयोः प्रयोजनम् राजेत्यत्रापि राजवत् सेव्यमानत्वम् अश्व अवश्यम् सेव्यमानत्वञ्च द्वयोः प्रयोजनम् अग्रहस्थ इत्यत्र समासनिर्देशो लाक्षणिकत्वप्रदर्शनमात्रपरः रूपं तु हस्तो अग्रं हस्त इदमित्येव अवयवावयविसम्बन्धेन निर्देशे रूपकासम्भवादत्र हस्तस्यैव विधेयस्य पश्वानिर्देशेऽपि पश्चानिर्देशेऽपि न रूपकमतोऽत्र लक्षणैव हस्तवत् कार्यकारित्वं सर्वथा हस्तकार्यकारित्वं च द्वयोः प्रयोजनं तात्कर्म्यं तत्कर्मकारित्वम् अतक्षा ब्राह्मणादिः तत्तक्षवत् कार्यकारित्वं तदतिशयं च द्वयोः प्रयोजनम् आद्यभेदाभ्यामिति उपादानलक्षणलक्षणाभ्यामित्यर्थः कारिकालक्षणा तेन षड्विधा आद्यभेदाभ्यां सह सा च कारिका व्यंग्येन रहितारूढौ सहिता तु प्रयोजने प्रयोजनं हि व्यंजनव्यापारगम्यमेव कारिका तञ्च गूढं गूढं वा तच्चेति व्यंग्यं गूढं यथा मुखं विकसित स्मितं वशित वक्रीम प्रेक्षितं समुच्छलित विभ्रमा गतिरपास्तं संस्थामतिः उरो मुकुलितस्तनं जघनं सम्बोद्धुरं वतेन्दुवदनातनौ तरुणी गमो मोदते गूढं स हृदयैक संवेद्यम् अगूढं वाच्यवत् सर्वजन संवेद्यम् गुढत्वे ध्वनि अगुढत्वे गुढीभूत व्यंग्यम् मुखमित्यादि वत हर्षे इन्दुवदनायास्तनौ वपुषि तरुणीमोद्गमः उद्गतं तारुण्यं मोदते उत्कर्ष भाग् भवति यतो मुखं विस्तृत हास्यम् प्रेक्षणम् आयत्ति कृतवक्रभावम् गतिरुद्बुद्ध विभ्रमा मतिरपास्तस्थिरता नानाविलास विषयीकरणात् वक्षः स्थलं मुकुलाकारस्तनम् अंसम्बन्ध अङ्गविभागः जघनम् तेनोधुरम् पीनम् अङ्गविभागेन मध्यक्षैण्ड्यात् जघनस्थौल्याञ्च अत्र विकासस्य पुष्पधर्मत्वेन स्मिते तद्वाधात् विस्तारे लक्षणलक्षणा असंकोचत्वं विकासविस्तारयोः सक्यलक्ष्ययोः सम्बन्धः पुष्पवन्मनोहरत्वं सहृदयिकसंवेद्यं व्यंग्यं विकासस्य पुष्पधर्मत्वेन अविदग्धैर्ज्ञानात् तेषां पुष्पस्यैवानुपस्थितेः सादृश्यहेतुकापियं न गौणितुल्यविभक्तया द्वयोर्निर्देशाभावात् दर्पणे तु सादृश्यहेतुक मात्रलक्षणैव गौणी तञ्च न ग्रन्थकृतसम्मतमिति प्रागेव दर्शितं तथा मोदस्य प्राणिधर्मत्वात् तारुण्ये तद्वाघादुत्कृष्टे लक्षणलक्षणा स्वाशयोत्कर्षकत्वं मोदोत्कृष्टयोः सक्यलक्ष्ययोः सम्बन्धः उत्कृष्टतारुण्याश्रयत्वेनेन्दुवदनायाः प्रकृष्टत्वं सहृदयिकवैद्यं व्यङ्ग्यं तारुण्ये मोदबाधस्यैवा विदग्धैरज्ञानात् अगूढं यथा श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम् उपदिशति कामिनी नाम यौवन मद एव ललितानि अत्रोपदिशतीति विस्तदेशा कथिता त्रिधा अव्यंग्या गूढव्यंग्यया अगूढव्यंग्यया च तद्भूर्लाक्षणिकः शब्द इति सम्बध्यते तद्भूतस्तदाश्रयः वाइस्तत्र व्यापारो व्यञ्जनात्मकः व्याख्या श्रीपरिचयादिति जडा अपि जनाः श्रीपरिचयाद् विदग्धचरितानामभिज्ञा भवन्ति तत्र दृष्टान्तालङ्कारमाह उपदिशतीति यौवनमद एव कामिनीनां ललितानि हेलालिलादिनि उपदिशति ज्ञापयतीत्यर्थः यथा यौवनमदात् कामिनीनां हेलालिलादिज्ञानं तथा जडानामपि श्रीपरिचयात् विदग्ध चरित ज्ञान मित्येवमाकारको। दृष्टान्तालङ्कारः अत्र परप्रवर्तक वागात्मन उपदेशस्य चेतन गुरुधर्मत्वेन अचेतने यौवनमदे तद्वाधाज ज्ञापने लक्षण लक्षणा प्रवर्तकत्वमुपदेश ज्ञापनयोः शक्य लक्ष्ययोः संबंध ललित ज्ञाने कामिनी नाम नायासः सर्वजन वेद्यो व्यंग्य उपदेशाद् नायासेन ज्ञानमित्य विदग्धैरपि ज्ञानात् क्वचित् पुस्तके तु अनायासेन शिक्षादानं विधेयवत् स्फुटं प्रकाशते इत्येव पाठस्ति ष्ठति संबध्यते इति शब्दोत्र व्यञ्जकस्त्रिधा इत्यतः संबध्यत् इत्यर्थः तत्र प्रयोजने। कुत् इत्याह 23 यस्य प्रतीतिमाधातुम् लक्षणा समुपास्यते फले शब्दैक गम्येत्र व्यञ्जनान्ना पराक्रिया वृत्ति प्रयोजन प्रतिपिपादयिषया यत्र लक्षणया शब्दप्रयोगस्तत्र नान्यतस्तत्प्रतीरिरपि तु तस्मादेव शब्दात् न चात्र व्यञ्जनादृतेऽन्यो व्यापारः। तथा हि व्याख्या यस्य फलस्य अत्र फले इत्यन्वयः फलञ्चात्र फलीभूतज्ञानविषयरूपं बोध्यं व्याचष्टे प्रयोजनेति नान्यत् इति शब्दैकगम्ये इत्यस्य विवरणं व्यञ्जनाद्रिते इति व्यञ्जनान्नापरे त्यस्य विवरणं व्यञ्जनं व्यञ्जनेति युगयुभ्यां रूपद्वयम्। कारिका नाविद्या समयाभावात् गंगायां घोष इत्यादौ ये पावनत्वादयो धर्मास्तटादौ प्रतीयन्ते न तत्र गंगादिशब्दाः संकेतिता। समयाभावादिति अत्र समयः शक्तिग्रहस्तद्व्यापारो वा अतो नात्र साध्याविशेषः बाधादित्रयमिति रूढिप्रयोजनयो वैकल्पिक हेतुत्वात् त्रित्वं हेतु लक्षणाज्ञापकम्। कारिका हेत्वाभावान्न लक्षणा मुख्यार्थ बाधादित्रयं हेतुः तथा च लक्ष्यं न मुख्यं नाप्यत्र बाधो योगः फलेन नो न प्रयोजनमेतस्मिन् न च शब्दः स्खलद्गतिः। वृत्ति यथा गंगा शब्दः स्रोतसि सबाध इति तटं लक्षयति तद्वद् यदि तटेऽपि सबाधः स्यात् तत्प्रयोजनं लक्षयेत् न च तटं मुख्योऽर्थः नाप्यत्र बाधः न च गंगा शब्दार्थस्य तटस्य पावनत्वा दैर्लक्षणीयः। संबंधः नापि प्रयोजने लक्ष्ये किञ्चित् प्रयोजनम् न च गंगाशब्द स्तटमिव प्रयोजनम् प्रतिपादयितुम् समर्थः। व्याख्या हेतुत्रयस्यैवाभावम् दर्शयति लक्ष्यमिति मुख्यबाधस्य तु लक्ष्यज्ञापकत्वेनैव वारितार्थत्वान्न प्रयोजनलक्षणायामुपयोग इति भावः ननु लक्ष्यस्य मुख्यत्वाभावेऽप्युपस्थितार्थबाध एव लक्षणाहेतुर्वाच्य इत्यत् आह नाप्यत्रेति तटादौ घोषाद्यधिकरणताया बाधो नास्तीत्यर्थः। चक्रवर्ती तु लक्षणीयस्य पावनत्वादेस्तटादौ बाधो नास्तीत्यर्थ इति व्याचष्टे तन्न लक्षणीयार्थान्वयबाधस्य लक्षणाहेतुत्वाभावात् योगः फलेन नो इत्यनेन प्रत्युत तद्वाधसत्त्वस्यैव दर्शितत्वाञ्च नन्वेवं लक्षणाहेतुत्रयस्यैवाभावाद् गङ्गादिशब्दानां पावनत्वादिबोधकत्वमेव नास्तित्वत्यत् अह न च शब्द इति गतिः स्वभाव अनुभव सिद्धस्तद् बोधकत्व स्वभावो न स्खल इत्यर्थः व्याचष्टे यथेति सबाध घोषान्वय बाधवान् न च गंगा शब्दार्थस्येति प्रवाहियं पावनत्वं हि प्रवाह वृत्त्येव तटे त्वाहार्यमेव प्रतीयते इति न तटे तद्योगः परंपरा संबंधस्य त्वव्यावर्तकत्वेन लक्षणा हेतुत्वाभावात् कारिका एवमप्यन्वस्था स्यादया मूल क्षतिकारणी एवमपि प्रयोजनं चेल्लक्ष्यते तत् प्रयोजनान्तरेण तदपि प्रयोजनान्तरेणेति प्रक्ता प्रतीकृदन् वस्था भवेत् व्याख्या गर्भावधि साध शतहस्तपर्यन्ते तीरे यः पावनत्वविशेषस्तस्य तटे सत्त्वेऽपि गङ्गाशब्दात् तदप्रतीत्या तस्या किञ्चिकरत्वात् न च शब्दः स्खलिदित्यादिकं व्याचष्टेन च गङ्गाशब्द इति तटमिव पावनत्वमपि प्रतिपादयितुं नासमर्थ अपि तु समर्थ एव अनुभव सिद्ध तद्बोधकत्व स्वभावेन स्खलद्गतिर् नित्यर्थः तथा च तत्प्रतिपादिका व्यञ्जनावृत्तिरेव स्वीकार्येति भावः वृत्ति ननु पावनत्वा दिधर्मयुक्तमेव तटं लक्ष्यते गङ्गायास्तटे घोष इत्यतो अधिकस्यार्थस्य प्रतीतिंश्च प्रयोजनमिति विशिष्टे लक्षणा तत् किं व्यञ्जन नयत्याह व्याख्या ननु लक्षणा विना विवक्षितार्थबोधानुपपत्तिरेव मुख्यार्थबाध विवक्षितार्थस्तु तटगतत्वेनारोप्यमाणं प्रवाहियं पावनत्वमेव तादृशे च पावनत्वे मुख्यार्थस्य प्रवाहस्य योगो स्थित्येव प्रयोजनं तु तदुत्तरं नियमतो यत् प्रतीयते तदेव वाच्य मित्यत आह एवं पीति अनुक्तस्यापि शार्थस्य हृदिस्थस्यैव योग्यतावशाद् एवं कारेण परामर्श प्रकृता प्रतीति कृदीति मूलक्षते विवरणम् मूलञ्च लक्षणया तटबोधः कारिका प्रयोजनेन सहितं लक्षणीयं न युज्यते व्याख्या एवं लक्षणया तटबोधानन्तरं पुनर्लक्षणया पावनत्वबोधे खण्डिते प्रथमेव पावनत्वविशिष्टे तटे लक्षणया पावने तटे घोष इति बोधोऽस्तु इत्याशङ्कते नन्विति प्रयोजनेनेति प्रयोजनीभूत ज्ञानविषय पावनत्वादिनेत्यर्थः अत्र प्राचीनाः विशिष्टे लक्षणाया अयुक्तत्वे ज्ञानस्येत्यादिकं हेतुमुत्थापयति कुत इत्याहेति ज्ञानस्येति हि यस्मात् ज्ञानस्य लक्षणाजन्यज्ञानस्य विषयोऽन्यः फलं तु फलीभूतज्ञानविषयः ततो लक्षणाजन्यज्ञानविषयादन्यदेव उदाहृतम् उदाहरणेषु दृष्टं यथा विकसितस्मितमित्यत्र लक्षणाजन्यज्ञानविषयो विस्तारः फलीभूतज्ञानविषयस्तु ततो अन्यत् पुष्पवन्मनोहरत्वं तत्रैव दृष्टान्तान्तरं वृत्तिकृताः प्रत्यक्षादेर्हिति प्रकटता ज्ञातता भट्टमते घटादौ ज्ञाते हि तत्र ज्ञाततारूप एको धर्मो जायते संवृत्तिः अनुव्यवसायः तद्द्वयमपि नीलादिज्ञानविषयान्नीलादितो अन्यदेवेत्यर्थः इति व्याचक्षते तन्न फलम् अन्यदित्यत्र फलपदस्य फलीभूतज्ञानविषयपरत्वे दृष्टान्ते तादृशज्ञानविषययोः प्रकटता संवित्ययोः फलत्वेन प्रदर्शनानुपपत्तेः तथा पावने तटे घोष इति यल्लक्षणाजन्यम् ज्ञानम् तदीय फलरूप ज्ञानान्तराभावात् पावनत्वस्य फलीभूत ज्ञान विषयत्वानुपपत्तेः अधिकार्थस्य प्रतिपत्तिः प्रयोजनमित्याशंका ग्रन्थे प्रतिपत्तेरेव प्रयोजनत्वकथनात् तद्विषयरूपस्य फलस्य अन्यत्वकथनेन तदाकांक्षायाः अनिवृत्तेश्च अत्रोच्यते पावनत्वविशिष्टरूपाधिकार्थस्य प्रतिपत्तेरेव लक्षणाजन्यपावनत्वविशिष्टप्रतिपत्तिफलत्वेन कथने फलफलिनोरभेदापत्तिः अतोवशिष्टं लक्षणीयं न युज्यते इति कारिकापूर्वार्धार्थः ननु फलफलिनोरभेदे स्वीकृते कथं विशिष्टं न युज्यते इत्यत्र परार्धोक्तं हेतुं वृत्तिकृदुत्थापयति कुत इत्याहेति हेतुमेवाह ज्ञानस्येति हिम शब्द इवार्थो अव्ययत्वात् तथा च ज्ञानस्य विषयो यथा ज्ञानात् भिन्नस्तथा तस्य फलमपि तदभिन्नमेव उदाहृतम् उदाहरणेषु दृष्टम् न तु त्वया आशंकितम् पावनत्वविशिष्ट तटज्ञानस्य फलम् पावनत्वविशिष्ट तटज्ञानमेवेत्यर्थः तदेवोदाहरणेषु दर्शयति प्रत्यक्षादेर्हिति प्रत्यक्षादे विषयो नीलादिरीव तत्फले प्रकटता संवित्ति अपि तद्भिन्ने एवित्यर्थः अत्र च ज्ञानस्येति प्रक्ताभिप्रायेणैव सर्वेषामेव फलफलीनां परस्परभिन्नत्वात् कारिका विशेषाः स्युस्तस्तु लक्षिते कारिका तटादौ ये विशेषाः पावनत्वादयस्ते चाभिद्या तात्पर्यलक्षणाभ्यो व्यापारान्तरेण गम्याः तञ्च व्यञ्जनध्वननद्योतनादिशब्दवाच्यम् अवश्यमेषितव्यम् एवं लक्षणामूला व्यञ्जनकत्वमुक्तम् अभिधामूलम् त्वाह व्याख्या व्यापारान्तरेण गम्या इति इदं च स्युरित्यत्र पूरयित्वा दर्शितं तच्चेति व्यापारान्तरमित्यर्थ कारिका अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते संयोगाद्यैर्वाच्यार्थाधिकृत व्याप्रीतिरञ्जनम् अविधामूलन्त्विति न त्वभिधेयमूलम् तस्याग्रे दर्शयिष्यमाणत्वात् अनेकार्थस्येति संयोगाद्यै नियन्त्रिते इत्यन्वयः नियन्त्रणञ्च अर्थान्तर्बोधप्रतिबन्ध शब्दस्येत्यनेन समासाधीनानेकार्थशब्दस्यापि परिग्रह अत एव इन्द्रशत्रुरित्यत्र समासपदेऽपि तथा त्वं दर्शिष्यते अवाच्यार्थेति वाच्यस्यैव नियन्त्रणवशादवाच्यतापन्नस्येत्यर्थः वृत्तिसंयोगो विप्रयोगश्च साहचर्यै विरोधिता अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः संयोगादीनेव परकीयकारिकया दर्शयति संयोग इति विप्रयोगः त्यागः साहचर्यसाहित्येन कार्यकारित्वं विरोधिता वैरीभावः एतञ्चतुष्टयं समभिव्याहृतपदार्थान्तरेणेति बोध्यम् अर्थः प्रयोजनं लिङ्गं चिह्नम् एतद्रियं समभिव्याहृतं बोध्यम् अन्यस्य शब्दस्य समानविभक्तिकस्येति बोध्यम् कारिका सामर्थ्यमौचितिदेशः कालो व्यक्तिः स्वरादयः शब्दार्थस्यानवच्छेदे विशेष स्मृतिहेतवः वृत्ति इत्युक्तदिशासशङ्खचक्रो हरिः अशङ्खचक्रो हरिरित्यच्युते रामलक्ष्मणाविति दशरथौ रामार्जुन तिस्तयोरिति भार्गव कार्तवीर्ययोः स्थाणुं भज भवच्छिदे इति हरेः। सर्वजानाति देव इति युष्मदर्थे कुपितो मकरध्वज इति कामे देवस्य पुराराते संभो मधुना मत्तः कोकिल इति वसन्ते पातुं वो दयिता मुखमिति सा मुख्ये। भात्यत्र परमेश्वर इति राजधानी रूपा देशाद् राजनि चित्रभानुर्विभातिति दिनेरवौ रात्रौ वहनौ मित्रं भातिति सुहृदि मित्रो भातिति रवौ इन्द्रशत्रुरित्यादौ वेद एव न काव्येश्वरो विशेष प्रतीतिकृत् आदिग्रहणात् सामर्थ्यम् निर्दिष्ट क्रिया जनन सामर्थ्यम् औचिति तात्पर्य निर्वाहकत्वम् देशः समभिव्याहृतः प्रदेशः कालः समभिव्याहृत दिनरात्र्यादिः व्यक्तिः शब्दस्य स्त्री नपुंसकलिङ्गम् स्वरः उदात्तादिः अनवच्छेदे अनेकत्वे विशेषस्य एकतरस्य स्मृतौ पदार्थोपस्थितिरूपायाम् हेतव इत्यर्थः। एतञ्च मीमांसकमत एव नैयायिकमते तु सर्वेषाम् पदार्थानामुपस्थितिः नियन्त्रणवशादेकस्यैवार्थस्य शाब्दानुभव इति एकत्रैव संयोगादीनाम् द्वित्रि सम्भवेऽपि यथा स्फूर्तिनियन्त्रणकर्त्वम् बोध्यम् अशङ्खचक्र इत्यत्र त्यागे नय अनयोः शङ्खचक्र संयोगत्यागौ हरिपदस्यानेकार्थस्यार्थान्तरवारणेन अच्युतरूपार्थबोधकौ एवम् उत्तरोत्तरमापि बोध्यम् दाशरथ्योरिति पाठो युक्तः द्वयोरपि पदयोरनेकार्थत्वात् अत्र साहचर्यम् विरोधितायाम् रामार्जुनेति रामोत्र भार्गवः अर्जुनः कार्तवीर्य अत्र द्वयो वैरीभावः प्रसिद्ध स्थाणुमिति अत्र भवच्छेद प्रयोजनम् हरबोधकम् अशाखवृक्षबोधवारकञ्च सर्वमित्यत्र प्रकरणम् देवपदस्य राजरूपार्थबोधकम् अमरबोधकवारकञ्च युष्मदर्थ इत्यनेन प्रकारान्त राजरूपार्थ एव दर्शितः न तु युष्मत्वेन तस्य शक्तिरिति मन्तव्यम् कुपित इत्यत्र मकरध्वजपदम् कामसमुद्रयोरनेकार्थकम् कोपस्तु कामस्यैव चिह्नम् न चाधिष्ठातृदेवतयोर्द्वयोरपि कोपश्चिह्नमेव अधिष्ठेययोस्तु कामिनी विषय इच्छाजलरासयोर्द्वयोरपि नेतिको विशेष इति वाच्यम् विरहिण्याम् कुपित इत्यर्थात् देवस्य इत्यत्र तुल्यविभक्तिकस्य त्रिपुराराति शब्दस्य सन्निधिर्नियन्त्रकः मधुना इत्यत्र मधुपदम् अनेकार्थम् कोकिलम् मादने पर्यात तत्रैवोचिति। भात्यत्र इत्यत्र परमेश्वर पदम् अनेकार्थम् अत्र राजधान्याम् राज्ञ एव सम्भवो न नारायणस्य। भात्यत्र गगने चन्द्र इति तु ज्याय उदाहरणम् काले चित्रभानुरिति दिने विभातीत्यत्रान्वयः व्यक्तौ मित्रमित्यादि द्वयम् स्पष्टम् इन्द्रशत्रुरित्यादौ बहुव्रीहितत पुरुषयोर्भेदे उदात्तादि स्वरभेदः। एद्यहमेत्तत्थर्णीया एत्तहमेत्तेहि अच्छिवत्तेहिम् एद्यहमेत्तावत्था एद्दहमेत्तेहिम् दिये एहिम् वृत्ति इत्यादावभीनयादयः इत्थं संयोगादिभिर विरर्थान्तरा विधायकत्वे निवारितेऽप्यनेकार्थस्य शब्दस्य यत् क्वचित् अर्थान्तर प्रतिपादनं तत्र नाभिधा नियमनात्तस्याः न च लक्षणामुख्यार्थ बाधाद्यभावात् अपि व्यञ्जनं व्यञ्जनमेव व्यापारः यथा भद्रात्मनो दूरधीरो हतनोर्विशाल वंशोन्नतेः कृतशिली मुखसंग्रहस्य यस्यानुपप्लवगतेः परवारणस्य दानाम्बुषेकसुभगः सततं करो भूत तद्युक्तो व्यञ्जकः शब्दः तद्युक्तो व्यञ्जनयुक्तः यतसो अर्थान्तर्युक्त तथा अर्थोऽपि व्यञ्जकस्तत्र सहकारितया मतः तथेति व्यञ्जकः इति काव्यप्रकाशे शब्दार्थस्वरूपनिर्णयो नाम द्वितीय उल्लासः एतावन्मात्रस्तनिका एतावन्मात्रैरक्षिपत्रहे एतावन्मात्रावस्था एतावन्मात्रैर्दिवसहे इति संस्कृतम् प्रेषिते प्रियजने तत्कलत्रावस्था कथनमिदम् अक्षिपत्रैर्विशिष्टेत्यर्थः अत्र एतावत् पदम् अनेकार्थम् अभिनयाञ्च सदृशात्मनां नियन्त्रका न च बुद्धिस्थत्वेनैकरूपेण बोधकमेतावत् पदम् कथम् अनेकार्थमिति वाच्यम् अभिनेयविषय तत्बुद्धिनामनेकत्वेन तथा बुद्ध्यावच्छेदकशरीरघटिकया बोधकस्यास्य अनेकार्थत्वात् अभिनयादय इत्यत्र आदिपदात् इतः स दैत्यः प्राप्तश्री रित्यादौ चेष्टापरिग्रह इति चक्रवर्ती तन्न चेष्टाया अभिनया भिन्नत्वात् किन्तु प्रियेण प्रार्थयमानाया निस्पन्दत्वं तदुत्तरम् इत्यादौ परकालप्रत्युत्तरवाचकस्य उत्तरपदस्य प्रत्युत्तरपरत्वे निस्पन्दत्वरूपश्चेष्टा विरहोऽपि नियन्त्रक आदिपदग्राह्याः यत् क्वचिदिति अत्र चक्रवर्ती यत्रोत्तर कालम् अर्थान्तर्बोधेऽपि वक्तुस्तात्पर्य तत्रेत्यर्थ इत्याह तन्न वक्तुस्तात्पर्याभावनिश्चयेऽपि क्वचिदर्थान्तर्बोधात् यथा सरेतु भुङ्क्ष्य विप्रेदम् सुरा मोदक रोदनम् इति अत्र हि असदर्थावक्तृत्वेन वक्तुर्निश्चितत्वेऽपि हे विप्र इतः सरसुराणामा मोदकरमिदमोदनम् भुङ्क्ष्वे ते तदर्थिकायाम् तदुक्तौ हे विप्र सुरागन्धकरम् रेतः सहितम् अन्नम् भुङ्क्ष्वे त्यसदर्थो तात्पर्यविषयोऽपि प्रतीयते तदर्थप्रतीत्या च अन्नजुगुप्सा जायते अतः फलिपरिचयः समभिव्याहारविशेष एव नियामक इति ब्रूमः नियमनात्तस्या इति अभिधामात्रजन्य तदर्थबोधम् प्रतिसंयोगादे प्रतिबन्धकत्वादित्यर्थ अन्यथा द्वितीयार्थबोधस्यापि प्रागेवोपपत्तेरिति भावः अथ प्रथमार्थबोधाभावविशिष्ट एव संयोगादिर्द्वितीयार्थबोधप्रतिबन्धकः प्रथमार्थबोधस्तु तेज्यक एवेत्यतो द्वितीयार्थोऽप्यभिधामात्रबोध्यम् एवास्विति चेत् सत्यम् अप्राकरणिकद्वितीयार्थबोधान्निस् कम्प्रवृत्त्य भावेन आस्वादविशेषजननेन च तत्र वैजात्यस्यावश्यकत्वेन तस्य च कारणविशेषाधीनत्वेन तत्करणतया व्यञ्जनासिद्धि तया च बोधने अविधापि सहकारणी अविधाया अविषये तादृश व्यञ्जनाया अभावात् अतएव तस्य अविधा मूलकत्वमुच्यते भद्रात्मन इति। यस्य राज्ञः करः पाणिः दानाम्बुनो वितरण जलस्य सेकेन सततम् सुभगो भूत यस्य कीदृशस्य भद्रात्मन उत्तम स्वरूपस्य दुर्धिरो हतनोः पराघृण्य गात्रस्य विशाले महति वंशे कुले उन्नतिर्यस्य तादृशस्य कृतवान परिग्रहस्य गतिरवस्थानम् अनुपद्रुतावस्थानस्य शत्रुनिवारकस्य च प्रकरणादित्थ मर्थे नियन्त्रितेऽपि हस्तिरूपोऽप्यर्थ शक्तिसहकृतया व्यञ्जनया प्रतीयते तथा हि यस्य परवारणस्य प्रकृष्टहस्तिनः करः शुण्डः दानाम्बुनो मद जलस्य सेकेन सततम् सुभगो भूत कीदृशस्य भद्राख्य गजजातीयस्य विशाल वेगुणतुल्योन्नते अतएव दूरधीरोः तनो कृतमदजलार्थी भ्रमरसंग्रहस्य गभीरगमनस्य च अत्रार्थे अविधासैतैव व्यञ्जनाबोधिका इत्थं व्यञ्जिते हस्तिनि हस्तिव राजा इत्युपमा अपि प्रतीयते इत्युपमा ध्वनिरन्यथा हस्तिबोधकपदसमभिव्याहारानुपयोगात् शाब्दां व्यञ्जनायामर्थविशिष्टः शब्दः काव्यमित्यभिप्रायेणाः यतसो अर्थान्तरेति युगयुक्तः इति श्रीमाहेश्वर न्यायालङ्कार भट्टाचार्यकृते काव्यप्रकाशा दर्शे शब्दनिर्णयस्य द्वितीयः प्रतिबिम्बः।